प्रसेनानेश्वरो अग्रे रथानाम् गव्यन्ने रिहर्षते अस्य सेना भद्रान् कृण्वन्निन्द्रहवान् सभिभ्य सोमावस्त्रारभसानि दत्ते समस्य हरिम् हरजो व्रजन्त्यश्वहजैरनिषदन्नमाभिः आतिष्ठति रथमिन्द्रस्य सखा विद्वान् एना सुमदीयात्यच्छ स नो देव देवता देववस्तमहेशो भप्सरस इन्द्रपानाः कृण्वन्नप वर्षयन्द्यापदेवापरोरानो वरिवस्या पुनानः अजे तजे हतजे पवस्व स्वस्तजे सर्वदा तजे बृहते तदुषन्ति विश्व इमे सखा जस्तदहम् वश्मि पवमान सोम सोमः पवते जनिता मदेनाञ्जनिता दिवा जनिता पृथिव्याः जनिताज्ञैर्जनिता सौर्यस्य जनितेन्द्रस्य जनितोदविष्णोः ब्रह्मा देवानाम् वदमेः कवेनामृषरविप्राणाम् महिषा मृगाणाम् श्येनोग्रध्राणाम् स्वधिधर्मणानाम् सोमः पवित्रमत्ये दिरे भन्न प्रावे विपद्वाज ओर्मिन्न सिन्धुर्गिरः सोमः पवमानो मनीषाः अन्तः पश्यन् व्रजने मावराण्यातिष्ठति वृषभोगोषु जानन् सवत्सरः पृच्छुबन्दन्नवादः सहस्ररेता अभिवाजमर्ष इन्द्रायेन्दोपवमानो मनीष्या अंशोरोर्मिमेरयगा इषण्यन् परिप्रियः कलशे देववात इन्द्रायसोमोरण्यामदाय सहस्रधारशतवाज इन्दुर्वाजेन सत्यः समना जगाति सपोर्व्याप सविद्याजमानो मृजानो अप्सुदुहानो अद्रौ अभिशास्त्रिमा भवनस्य राजा विदद्गातुम् ब्रह्मणे पूजमानः त्वया हि नः पितरः सोमपोर्वे कर्माणि चक्रः पवमानधीराः वन्वन्नवादः परिधेङ्ग्रवोर्णवीरेभिरश्वैर्मघवा भवानः यथा भवथा मनवेव जोधा अमित्रः वरिवो विद्धविष्मान् एवाभवस्वद्रविणम् दधा न इन्द्रय सन्तिष्ठ जनयाजुधानि पवस्व सोमवधुमाङ्कृता वापोपसा नो अधिसानो अव्ये अभद्रोणानि घृतवान्दिसेदमदिन्दमावत्सर इन्द्रपानाः वृष्टिम् दिवः शतधारः पवस्व सहस्रसा वा जयुर्देववेदौ संसिन्धुभिः कलशे वावशानः समसृजाभिः प्रतिरन्न आयोः एषस्य सोमा मदिभिः पुनानोत्योनपाजेतरतेतरातेः पयोनदुग्धमदितेर्षिरमुर्मिव गातुः सुजमो न वोल्हा स्वाजुधः सोतृभिः पूजमानोऽभ्यर्षगुह्यञ्जानु नाम अभिवाजम् सत्यरिवश्रवस्याभिवाजमभिगादेव सोम शिशुम् दज्ञानम् हर्यदम् व्रजन्ति सम्भन्ति वह्निम् मरुतो गणेन कविर्गेर्भ्यः काव्येन कविः सन् सोमः पवित्रमत्ये तिरे भन्न ऋषिमनाजर्षिकृत्स्वर्षाः सहस्रणीधः पदवेः कवीनाम् ऋतेजन्धापमहिषस्यशा सन् सोमा विराजमनुराजधिष्टुप चमोषच्छेनः शकुनो बिभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत अपाभोर्मिम् सजमानः समुद्रम् दुरेजन्धापमहिषो विभक्ति मर्यो न शुभ्रस्तन्वम् मृजानोऽत्यो न श्रुत्वा सनजेधनानाम् वृषे वजोधा परिकोशपरशङ्करिक्रदच्चम्बो ओराविवेश पवस्वेन्दोपपमानो महाभिः करिक्रदत्परिवाराण्यर्ष क्रीडन् चम्बो ओराविषपोजमान इन्द्रन् तैरसोमधिरोममत्त प्रास्य धारा बृहतेन सर्गन्नक्तागोभिः कलशाम् आविवेश സപകൃണ്ടൻ ക്ഷമന്യാവിപശ്യത്രന്ദം നേത്യഭിസഖ്യർന്നജാമ്യം അപഘ്നന്നേജപവമാനശത്രോന്ത്രിയാന്നജാരോ അഭിജേത ഇന്ദോഹ സേദന്വരേഷു ശകുനാനപത്ത സോമഃ പുനാനഃ കലശേഷു സത്ത ആതേരുജഃ പവമാനസ്യ സോമജോഷേ വയന്തി സുദുഃഖാ സുധാരോഃ ഹരിരാനേതഃ പുരപാരോ അപ്സ്വചക്രതത്കലശേ ദേവജോനാ